इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। केन्द्रीय मन्त्रिमण्डलेन 2020-2027 वर्षस्य जनगणनायाः कृते प्रायः पादोनद्वादशसहस्रकोटिरूप्यकाणाम् आयव्ययिकस्य अनुमोदनं कृतम्। सर्वकारः अवोचत् यत् लोकसभायां वायुप्रदूषणस्य विषये चर्चां कर्तुं सर्वकारः सज्जः अस्तीति। राष्ट्रपतिः द्रौपदी मुर्मुः मणिपुरस्य सेनापतिमण्डले 6 विकासपरियोजनानाम् उद्घाटनम् अकरोत्। निर्वाचनायोगः 8 राज्येषु निर्वाचकसूच्यां विशेषगहनसंशोधनस्य निरीक्षणार्थं विशेष अनुक्रमणिका पर्यवेक्षकाणां नियुक्तिं कृतवान्। अपि च अन्तः 19 वयसां क्रिकेटक्रीडायां दुबईनगरे एशियाकप् इति क्रीडायाः आरम्भिकक्रीडायां भारतं UAE इति देशम् अजयत्। अथ वार्ताः विस्तरेण। संसदीय कार्यमंत्री किरेन रिजिजुः अवदत् यत् लोकसभायां वायुप्रदूषणस्य विषये चर्चायै सर्वकारः सज्जः अस्ति। सः अवदत् यत् व्यवसाय परामर्शद समितेः विपक्षनेतृभिः विषयोऽयं समुत्थापितः इति कारणात् सर्वकारेण तस्य विषये विचारः करणीयः तथा च नियमान्तर्गतं चर्चायाः संरचना कथं भविष्यति च द्रष्टव्यं भविष्यति। मन्त्री इतोपि अवदत् यत् प्रथमदिवसे एव प्रशासनं स्वपक्षं बहुस्पष्टं कृतवान् यत् सर्वेषु महत्वपूर्णविषयेषु सर्वकारः विपक्षदलानां सूचनानि स्वीकृत्य चर्चायै समाधानम् अन्वेष्टुं सज्जः अस्तीति।
सरकार ने अपना रुख स्पष्ट कर दिया था कि सभी महत्वपूर्ण मुद्दों पर सरकार विपक्षी दलों के सुझावों को ध्यान में रखते हुए समाधान निकालने के लिए चर्चा को तैयार है।
शून्यकाले प्रकरणमिमं उत्थापयन् विपक्षस्य नेता राहुल गांधी अवदत् यत् महत्वपूर्णमिदं प्रकरणम् अस्ति यस्य साम्मुख्यं देशः अधुना करोति। इदञ्च विचारधारात्मक विषयोऽपि नास्तीति आशास्यते। एतन्मध्ये केन्द्रीय मन्त्रिमण्डलेन 2020-2027 वर्षस्य जनगणनायाः कृते प्रायः पादोनद्वादशसहस्रकोटिरूप्यकाणाम् आयव्ययिकस्य अनुमोदनं कृतम्। राष्ट्रपतिपदासीना द्रौपदी मुर्मुः अद्य मणिपुरस्य सेनापतिमण्डलं गत्वा मण्डले कार्यान्विताः भिन्नाः 6 विकासपरियोजनाः उद्घाटितवती। सा मणिपुरस्य एकमात्रस्य मरम् इति सामाजिकरूपेण निर्बलभूतस्य जनजातेः नेत्रा सह अपि मिलित्वा वार्तालापं कृतवती। बहुद्देशीयसभामण्डपे जनसमूहं सम्बोधयन्ती राष्ट्रपतिः द्रौपदी मुर्मुः उक्तवती यत् पीएम जन मन इति योजनान्तर्गतं जनजातीय समुदायस्य विशेषतः PVTG इत्येतस्य उत्थानार्थं अनेके उपक्रमाः आरब्धाः सन्तीति।
टुडे आई एम प्लीज्ड टू हैव इनॉग्रेटेड ए नंबर ऑफ इम्पोर्टेंट प्रोजेक्ट्स दैट विल फर्दर इम्प्रूव द क्वालिटी ऑफ लाइफ ऑफ द पीपल ऑफ मणिपुर। दीज प्रोजेक्ट्स इन डाइवर्स एरियाज ऑफ ट्राइबल डेवलपमेंट, एग्रीकल्चर, इंफ्रास्ट्रक्चर, इलेक्ट्रिसिटी, ड्रिंकिंग वाटर, एजुकेशन, हेल्थ एंड स्पोर्ट्स रिफ्लेक्ट आवर कमिटमेंट टू बिल्डिंग ए मोर मॉडर्न एंड इंक्लूसिव मणिपुर। The projects for which foundation laying has been done today cover a wide range of areas like infrastructure, handloom and handicrafts, tourism, electricity, drinking water, security and administration, health and sports. These sports projects will generate employment, improve infrastructure and accelerate economic activity.
निर्वाचनायोगः 8 राज्येषु निर्वाचकसूच्यां विशेषगहनसंशोधनस्य निरीक्षणार्थं विशेष अनुक्रमणिका पर्यवेक्षकाणां नियुक्तिं कृतवान्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ओन् एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। विगतदशवर्षेषु देशे सस्योत्पादनं 44% वर्धितमस्तीति सर्वकारः अवदत्। राज्यसभायाम् अद्य प्रश्नोत्तरकाले अनुपूरक प्रश्नस्योत्तरे केन्द्रीय कृषि कृषक कल्याण मन्त्री शिवराज सिंह चौहानः अवदत् यत् चतुर्दशोत्तर द्विसहस्रतम वर्षतः चतुर्विंशत्युत्तर द्विसहस्रतम वर्ष पर्यन्तं नूतन बीजप्रकारैः आधुनिक प्रौद्योगिकिना उन्नत कृषि पद्धत्या च एतत् सम्भवम् अभवदिति। सः अवदत् यत् सर्वकारः कृषिक्षेत्रे सर्वसमावेशक विकासाय निरन्तरं प्रयतमानः अस्ति। श्रीचौहानः अवदत् यत् मोदी सर्वकारः कृषकाणाम् आयं वर्धयितुं समग्र कृषिवृद्धिं प्रवर्धयितुं च केन्द्रितः अस्ति इति।
अकेले फर्टिलाइजर सब्सिडी लगभग 2,00,000 करोड़ मोदी सरकार दे रही है किसानों को। प्रधानमंत्री किसान सम्मान निधि छोटे किसानों के लिए वरदान बन गई है, लगभग 4,09,000 करोड़ रुपया प्रधानमंत्री किसान सम्मान निधि के रूप में किसानों के खातों में अंतरित किया गया है।
आंध्र प्रदेश से अल्लूरी सीता रामराजु मंडले अद्य प्रातः घटितायां बसयान दुर्घटनायां मृतकानां संख्या 9 यावत् वर्धितास्ति। दुर्घटनायां प्रायः 22 जनाश्च व्रणिताः अभवन्। दुर्घटनाकाले आहत्य 35 यात्रिकाः द्वौ चालकौ च आसन्। बसयानस्य चालकस्य नियन्त्रणं नष्टम् अभवत् तथा च वाहनं मार्गात् अधः गिरिषु पतित्वा उत्तानचक्रिका च जाता इति कथ्यते। तुलसीपाकाग्रामं निकषा चिन्तूरु मेरेडु मिल्ली घाटमार्गे समीपस्थं तेलंगानाराज्यं प्रति गच्छत् बसयानम् आसीत्। तदा एषा घटना घटिता। स्थानीयाः निवासिनः आरक्षकाश्च रक्षणार्थम् आगताः। अपि च व्रणिताः जनाः चिन्तूरुक्षेत्रे चिकित्सालयं प्रति स्थानान्तरिताः। मुख्यमंत्री चंद्रबाबू नायडुः अस्याः दुखद घटनायाः विषये शोकं दुःखं च प्रकटितवान्। राज्यपालः एस अब्दुल नजीरः बस दुर्घटनायां गभीरं दुःखं प्रकटितवान्। राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपतिः सीपी राधाकृष्णवर्यः, प्रधानमंत्री नरेन्द्र मोदी च विषयेस्मिन् शोकं प्रकटितवन्तः। कांग्रेसदलस्य वरिष्ठः नेता पूर्व केन्द्रीय गृहमन्त्री च शिवराज पाटिलः अद्य लातूर नगरे 91 वयसि दिवंगतः। राष्ट्रपतिः द्रौपदी मुर्मुः, प्रधानमंत्री नरेन्द्र मोदी च पूर्व केन्द्रीय मन्त्रिणः शिवराज पाटिल वर्यस्य निधने शोकभरितभावान् प्रकटितवन्तः। सामाजिक प्रसार माध्यमे राष्ट्रपतिः उक्तवती यत् स्वस्य दीर्घ सार्वजनिक जीवनकाले श्री पाटिलः लोकसभायाः अध्यक्षः, केन्द्रीय मन्त्री, राज्यपालः, दीर्घकालं यावत् संसद सदस्यश्च आसीदिति। राज्यसभायां सभापतिः सीपी राधाकृष्णवर्यः अवदत् यत् 1,00,000 वर्षस्य दिसेम्बर मासस्य 13 इतिहासस्य कलंकित दिवसः आसीत्, यदा भारतीय लोकतन्त्रस्य प्रतीकस्थलं संसद भवनमेव आततायिभिः लक्षीकृत्य देशस्य आधारे प्रहारः कृतः। अद्य तस्मिन् प्रकरणे वीरगतिं प्राप्त भटेभ्यः श्रद्धांजलिः संसदद्वयेन दत्ता। भाजपेतिदलेन अद्योक्तं यत् कांग्रेसदलं निमज्जनशीलः जलपोतः अस्तीति। दलेन अग्रे उक्तं यत् कांग्रेसदलस्य कटकक्षेत्रस्य पूर्वविधायकस्य मोहम्मद मुकीम इत्यादीनां नेतॄणां वक्तव्यं तत् सिद्धयति अपि। नवदेहल्यां पत्रकारसम्मेलने कांग्रेसनेत्रा लिखितस्य पत्रस्य उल्लेखं कुर्वन् भाजपा पक्षस्य प्रवक्ता प्रेमशुक्लः अवदत् यत् बहवः कांग्रेसनेतारः दलस्य असफल नेतृत्वविषये पौनःपुन्येन चिन्तां प्रकटयन्तीति। प्रियाः श्रोतारः, अन्ते क्रिकेट क्रीडा वार्तायाम्। अन्तः 19 वयसां क्रिकेट क्रीडायां 34-100 धावनाङ्कानां लक्ष्यस्य अनुसरणं कुर्वन्तः UAE इति देशीयं दलं दुबईनगरे एशिया कप इति क्रीडायाः आरम्भिक क्रीडायां भारतं विरुध्य 121 धावनांकेषु एव पराभूताः। 34-200 धावनांकैश्च भारतेन क्रीडेयं विजिता, यत्र वैभव सूर्यवंशी इत्यनेन केवलं 95 कन्दुकेषु अत्युत्कृष्टतया 170 धावनांकाः रचिताः इति वार्ताः।